श्री सीताराम चंद्राभ्याम नमः। श्रीमद् वाल्मीकि रामायणम् बालकांडम् पंचमः सर्गः। पूर्वमियं येषां आसीत् कृत्स्ना वसुंधरा प्रजापतिम् उपादाय नृपाणां जयशालिनां येषां स सगरो नाम सागरो येन खानितः षष्टिपुत्र सहस्राणि यं यान्तं पर्यवारयन् इक्ष्वाकूणामिदं तेषां राज्ञां वंशे महात्मनां महदुत्पन्नमाख्यानं रामायणम् इति श्रुतम्। तदिदं वर्तयिष्यावह सर्वं निखिलमादितः धर्मकामार्थसहितं श्रोतव्यमनसूयता। कोशलो नाम मुदितः स्थितो जनपदो महान् निविष्टः सरयू तीरे प्रभूत धन धान्यवान्। अयोध्या नाम नगरी तत्रासील्लोक विश्रुता मनुना मानवेन्द्रेण या पुरी निर्मिता स्वयं। आयता दश च द्वे च योजनानि महापुरी श्रीमती त्रीणि विस्तीर्णा सुविभक्त महापथा। राजमार्गेण महता सुविभक्तेन शोभिता मुक्त पुष्पावकीर्णेन जलसिक्तेन नित्यशः। तां तु राजा दशरथो महाराष्ट्र विवर्धनः पुरीमावासयामास दिवि देव पतिर्यथा। कपाट तोरणवतीं सुविभक्तांतरापणां सर्वयंत्रायुधवतीं उषितां सर्वशिल्पिभिः। सूतमागध संबाधां श्रीमतीं अतुलप्रभां उच्चाटाल ध्वजवतीं शतघ्नी शत संकुलां। वधूनाटक संघैश्च संयुक्तां सर्वतः पुरीं उद्यानां रवणोपेतां महतीं सालमेखलां। दुर्ग गंभीर परिखां दुर्गा मन्यैर्दुरासदां वाजिवारण संपूर्णां गोभिरुष्ट्रैः खरैस्तथा। सामंतराज संघैश्च बलिकर्मभिरावृतां नाना देश निवासैश्च वणिग्भिः उपशोभितां। प्रासादै रत्नविकृतैः पर्वतैरिव शोभितां कूटागारैश्च संपूर्णां इन्द्रस्येवामरावतीं। चित्रामष्टापदाकारां वरनारीगणायुतां सर्वरत्न समाकीर्णां विमान गृहशोभितां। गृहगाढां अविच्छिद्रां समभूमौ निवेशितां शालितंडुल संपूर्णां इच्छुकांडर सोदकां। दुम्दुभिर्मृदंगैश्च वीणाभिः पणवैस्तथा नादितां वृषमत्यर्थं पृथिव्यां तामनुत्तमां। विमानं इव सिद्धानां तपसाधिगतं दिवि सुनिवेशित वेश्मान्ताम् नरोत्तम समावृताम् ये च बाणैर्न विध्यन्ति विविक्तम् अपरापरम् शब्दवेद्यं च विततम् लघुहस्ता विशारदाः सिंहव्याघ्रवराहाणां मत्तानां नदतां वने हन्तारो निशितैः शस्त्रैः बलाद् बाहुबलैरपि तादृशानां सहस्रैस्ताम् अभिपूर्णां महारथैः पुरीमावासयामास राजा दशरथस्तथा तामग्निमद्भिर्गुणवद्भिरावृताम् द्विजोत्तमैर्वेदशडङ्गपारगैः सहस्रदैः सात्यरतैर्महात्मभिः महर्षिकल्पैर्ऋषिभिश्च केवलैः इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चमः सर्गः।